अजेदाजे मनसा तिष्ठघोरे वचा अंसि मिश्राघृणवावहैनो न नो मन्त्रा अनुदिदास एते मजस्करन् भरतरे च नाहन्न किमेता वाचा कृणवाहवाहम् प्राक्रमिषमुषसा अमग्रजेव पुरो ओरवः पुनरस्तम् परे एहि दुरापना वात इवाहमस्मि इषुर्नश्रज इषधेरसना घोषाश्यतसा नरम् हेः अवीरे क्रतो विदविद्युदन्नो रानमाजुञ्जितयन्तधुनजः सा वसुदधतेष्वशुराजवज उषो यदि वष्ट्यन्ति गृहात् अस्तन्नरक्षेजस्मिञ्चाकन्दिवानक्तम् ष्णथिता वैतसेन त्रिस्ममान्हष्णधजो वैतसेनोतस्ममे व्यत्यै वृणासि पुरो रवो नु ते केतमाजम् राजा मे वीरतन्वा अस्तदा आसीः व्यासजोर्निःश्रेणिः सुम्न आपिरहृदय चक्षुर्न ग्रन्थिनी चरण्यः ता अञ्जयो ऋणजो न सस्वश्रजे गावो न धेनवो नवन्ता समस्मिञ्जाजमान आसदग्ना उतेमवर्धन्नद्या अस्वगोर्ताः महे जत्वा अपरोरवोर्णाजा वर्धयन्नस्य हत्या अजदेवाः स चाजदा सुजहतेष्वत्कममा अनुशेषमानुषो निषेवे अपस्ममत्तरसन्तेन भुज्युस्ता अत्र संरथस्पृशो नाश्वाः यदा सुमर्तो अमृता सुनिःस्प्रक्साम् क्षोणेभिक्रतुभिर्नभृङ्क्ते ता आतजो न तन्वशुम्भदस्वा अश्वासो न क्रीडजो दन्तशानोः विद्यन्नजापतन्ते दविद्याद्भरन्ते मे अप्याकाम्यानि जनिष्ठो अपोनर्यस्वजातः प्रोर्वशेतिरतदीर्घमाजोः जग्निष इत्था गोपेत्या जहि दधा तदत्पुरोरवो म ओजाः अशा आसन्त्वा विदुषेषस्मिन्नहन्नम आशृणोः किमभुग्वदासि कदा सो नः पितरम् जात इच्छाच्चक्रन्नाश्रवर्तयद्विजानन् कोदम्बदे समनसा विजो ओजो दधयदग्निश्वशुरेषु देदजत प्रतिप्रमाणि वर्तयते अश्रुचक्रन्न क्रन्दधाध्ये शिवाजै प्रदत्ते हि न भाजत्ते अस्मे परे ह्यस्तम् दहिमो रमापाः सुदेवो अद्य प्रपदेतना वृत्परावतम् परमाङ्गम् तव अधाशये तनिरुपस्थे धैनम् मृगारभसासो अद्योः पुरो रवो मा वृथा मा प्रपप्तो मात्मा मृगासो अशिवास उक्षन् न वै स्त्रैणानि सख्यानि सन्ति साला मृगाणाम् हृदयान्येत यद्विरोपाचरम् मर्त्येष्वव सम्रात्रे शरदश्च दस्रः घृतस्य स्तोकम् सकृतम् ह आष्टान्ता देवेदम् तादृपाणाचरामि अन्तरिक्षप्राम् रजसाभिमानेवपशिक्षाम्युर्वशेम् वसिष्ठः उपत्पारातिः सुकृतस्य तिष्ठान्निवर्तस्व हृदयम् दप्यते मे इति त्वा देवा इम आहुरैडयथे मे तद्भवसि मृत्युबन्धुः प्रजाते देवान्हविषा जजाति स्वर्ग उत्तममिमादजासे